ॐ नमो भगवते वासुदेवाय। अथ सप्ततितमोऽध्यायः। श्रीशुक उवाच। अथो सस्युपवृत्तायाम् कुक्कुटान् कूजतो शपन् गृहीतकण्ठ्यः पतिभिर्माधव्यो विरहातुराः। वयांस्यरुरुवन् कृष्णम् बोधयन्ति ववन्दिनः। गायत्स्वलिष्वनिद्राणि मन्दारवनवायुभिः। मुहूर्तम् तम् तु वैदर्भीनाम् मृष्यदति शोभनम्। परिरम्भणविश्लेषात् प्रियभावन्तरङ्गता। ब्राह्मे मुहूर्त उत्थाय वार्युपस्पृश्य माधवः। दध्यौ प्रसन्नकरण आत्मानम् तमसः परम्। एकम् स्वयम् ज्योतिरनन्यमव्ययम् स्वसंस्थया नित्यनिरस्तकल्मषम्। ब्रह्माख्यमस्योद्भवनाशहेतुभिः स्वशक्तिभिर्लक्षितभावनिर्वृतिम्। अथाप्लुतोऽम्भस्य मले यथाविधि क्रियाकलापम् परिधाय वाससि। चकारसन्ध्योपगमादिसत्तमो हुतानलो ब्रह्म जजाप वाग्यतः। उपस्थायार्कमुद्यन्तम् तर्पयित्वात्मनः कलाः। देवान् ऋषीन् पितॄन् वृद्धान् विप्रानभ्यर्च्य चात्मवान्। धेनूनाम् रुक्मशृङ्गीणाम् साध्वीनाम् मौक्तिकस्रजाम् पयस्विनीनाम् गृष्टीनाम् सवत्सानाम् सुवाससाम्। तदौरूप्यखुराग्राणाम् क्षौमाजिनतिलैः सह अलङ्कृतेभ्यो विप्रेभ्यो बद्वम् बद्वम् दिने दिने। गोविप्रदेवतावृद्धगुरून् भूतानि सर्वशः। नमस्कृत्यात्मसम्भूतिर्मङ्गलानि समस्पृशत्। आत्मानम् भूषयामास नरलोकविभूषणम्। वासोभिर्भूषणैः स्वीयैर्दिव्यस्रगनुलेपनैः। अवेक्ष्याज्यम् तथा दर्शम् गोवृषद्विजदेवताः। कामांश्च सर्ववर्णानाम् पौरान्तः पुरचारिणाम् प्रदाप्य प्रकृतिः कामैः प्रतोष्य प्रत्यनन्दत। संविभज्याग्रतो विप्रान् सक्ताम्बूलानुलेपनैः सुहृदः प्रकृतिर्दारानुपायुङ्क्त ततः स्वयम्। तावत्सूत उपानीय स्यन्दनम् परमाद्भुतम् सुग्रीवाद्यैर्हयैर्युक्तम् प्रणम्यावस्थितो ग्रतः। गृहीत्वा पाणिना पाणी सारथेस्तमथारुहत् सात्यक्युद्धव संयुक्तः पूर्वाद्रिमिव भास्करः। ईक्षितोऽन्तः पुरस्त्रीणाम् सव्रीडप्रेम वीक्षितैः कृच्छ्राद् विसृष्टो निरगाज्जातः सोहरन्मनः। सुधर्माख्याम् सभाम् सर्वैर्वृष्णिभिः परिवारितः प्राविशद् यन्निविष्टानाम् न सन्त्यङ्गसदूर्मयः। तत्रोपविष्टः परमासने विभुर्बभौ स्वभासा ककुभो वभासयन् वृतो नृसिंहैर्यदुभिर्यदूत्तमो यथोडुराजो दिवि तारकागणैः। तत्रोपमन्त्रिणो राजन्नानाहास्यरसैर्विभुम् उपतस्थुर्नटाचार्या नर्तक्यस्ताण्डवैः पृथक् मृदङ्गवीणामुरज वेणुतालदरस्वनैः। नन्दतृजगुस्तुष्टुवुश्च सूतमागधवन्दिनः। तत्राहुर्ब्राह्मणाः केचिदासीना ब्रह्मवादिनः। पूर्वेषाम् पुण्ययशसाम् राज्ञाम् चाकथयन् कथाः। तत्रैकः पुरुषो राजन्नागतो पूर्वदर्शनः विज्ञापितो भगवते प्रतिहारैः प्रवेशितः। स नमस्कृत्य कृष्णाय परेशाय कृताञ्जलिः। राज्ञामावेदयद्दुःखम् जरासन्धनिरोधजम्। ये च दिग्विजये तस्य सन्नतिम् न ययुर्नृपाः। प्रसह्य रुद्धास्तेन सन्नयुते द्वे गिरिव्रजे। कृष्णकृष्णाप्रमेयात्मन् प्रपन्नभयभञ्जन वयम् त्वाम् शरणम् यामो भवभीताः पृथग्धियः। लोको विकर्म निरतः कुशले प्रमत्तः कर्मण्ययम् त्वदुदिते भवतर्चने स्वे। यस्तावदस्य बलवानिह जीविताशाम् सद्यश्चिनत्य निमिषाय नमोऽस्तु तस्मै। लोके भवान् जगदिनः कलयावतीर्णः सद्रक्षणाय खलनिग्रहणाय चान्यः। कश्चित् त्वदीयमतियाति निदेशमीश किं वा जन स्वकृतमृच्छति तन्न विद्मः। स्वप्नायितम् नृपसुखम् परतन्त्रमीश शश्वद्भयेन मृतकेन धुरम् वहामः। हित्वा तदात्मनि सुखम् त्वदनीह लभ्यम् क्लिश्यामहेति कृपणास्तव माययेह। तन्नो भवान् प्रणतशोकहराङ्घ्रियुग्मो बद्धान् वियुङ्क्ष्वमगधाव्वय कर्मपाशात्। यो भूभुजो युतमतङ्गजवीर्यमेको बिभ्रद्रुरोधभवने मृगराडिवावीः। यो वै त्वया द्विनव कृत्व उदात्त चक्र भग्नो मृधे खलु भवन्तम् अनन्त वीर्यम् जित्वा नृलोक निरतम् सकृदूढ दर्पो युष्मत् प्रजा रुजति नोजित तद्विधेहि। दूत उवाच इति मागद समृद्धा भवद्दर्शन काङ्क्षिणः प्रपन्नाः पादमूलं ते दीनानां संविधीयताम्। श्रीशुक उवाच राजदूते ब्रुवत्येवं देवर्षि परमद्युतिः बिभ्रद्विङ्गजटाभारं प्रादुरासीद् यथा रविः। तं दृष्ट्वा भगवान् कृष्णः सर्वलोकेश्वरेश्वरः ववन्दोत्थितः शीर्षिणा ससभ्यः सानुगो मुदा सभाजयित्वा विधिवत्कृतासन परिग्रहं बभाषे सूनृतैर्वाक्यैः श्रद्धया तर्पयन् मुनिम्। अपि स्विदद्य लोकानां त्रयाणामकुतो भयम् ननु भूयान् भगवतो लोकान् पर्यटतो गुणः। नहि ते विदितं किञ्चित् लोकेष्वीश्वरकर्तृषु अथ पृच्छामहे युष्मान् पाण्डवानां चिकीर्षितम्। श्रीनारद उवाच दृष्टा मया ते बहुशो दुरत्यया माया विभो विश्वसृजश्च मायिनः भूतेषु भूमन् शरतः सशक्तिभिर्वन्नेरिवच्छन्न रुचो न मेऽद्भुतम्। तवे हितं कोऽर्हति साधु वेदितुम् स्वमाययेदं सृजतो नियच्छतः। यद्विद्यमानात्मतया वभासते तस्मै नमस्ते स्वविलक्षणात्मने। जीवस्य यः संसरतो विमोक्षणं न जानतो नर्थवहाच्छरीरतः। लीलावतारै स्वयश प्रदीपकं प्राज्वालयत्वा तमहं प्रपद्ये अथाप्याश्रावये ब्रह्म नरलोक विडम्बनं राज्ञः पैतृस्वसेयस्य भक्तस्य च चिकीर्षितम्। यक्षति त्वां मखेन्द्रेण राजसूयेन पाण्डवः पारमेष्ठ्यकामो नृपतिस्तद्भवान् अनुमोदताम्। तस्मिन् देवक्रतुवरे भवन्तं वै सुरादयः दिदृक्षवः समेष्यन्ति राजानश्च यशस्विनः। श्रवणात् कीर्तनात् ध्यानात् पूयन्तेऽन्ते वसायिनः तव ब्रह्ममयस्येष किमुतेक्षाभिमर्षिणः। यस्यामलं दिवि यशः प्रसितं रसायाम् भूमौ च ते भुवनमङ्गल दिग्वितानम्। मन्दाकिनीति दिवि भोगवतीति चाधो गङ्गेति चेह चरणाम्बुपुनाति विश्वम्। श्रीशुक उवाच तत्र तेष्वात्मपक्षे स्वगृह्णत्सु विजिगीषया वाचः पेशैः स्मयन् भृत्य मुद्धवम् प्राह केशवः। श्रीभगवानुवाच त्वं हि नः परमं चक्षुः सुहृन्मन्त्रार्थतत्त्ववित् तथात्र ब्रूह्यनुष्ठेयं श्रद्दद्मः करवाम तत्। इत्युपामन्त्रितो भर्त्रा सर्वज्ञेनापि मुग्धवत् निदेशं शिरसाधाय उद्धवः प्रत्यभाषत। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे भगवद्ज्ञानविचारे सप्ततितमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।